अस्तु, सर्वेषां स्वागतम्। इदानीं वर्गम् आरम्भामः। अत्र ध्येयमन्त्रः अस्ति। केतकी भगिनी कृपया वदतु।
आं भगिनि, पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्। हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा, संरक्षननु कुर्याम विश्वं शान्ति समन्वितम्। ॐ शान्ति शान्ति शान्तिः, हरिः ॐ। श्रीगुरुभ्यो नमः, हरिः ॐ।
उत्तमं भगिनी, धन्यवादः।
धन्यवादः।
उत्तमम्। अस्तु, वयम् अभ्यासदर्शिनीपुस्तकं प्रति गच्छामः। सो अत्र वयं स्वागतम्।
I just wanted to share something with you, if I may, before you start this class. You know, whenever I think of Shashti Vibhakti, for the past few couple of weeks, I hear your voice in my ears. Ramasya Ramayoha Ramanam. You know, the repetition that you have been doing with us over the last few weeks, it's so wonderful that, you know, your voice is audible all the time. So my request to you is, could you kindly do it for all the Vibhaktis, especially for people like me who are on the wrong side of 50, it becomes easier to memorize it that way.
Oh, nischayena bhagini, nischayena. Yeah.
Thank you so much.
Dhanyavad. Dhanyavad bhagini, for saying that. अस्तु, सो अत्र वयं षष्टि विभक्तिरूपं पठितवन्तः खलु इतोपि पर्यन्तम्। अभ्यासं कृत्वा वयं सप्तमी विभक्तिम् आरम्भं कुर्मः। अत्र अस्ति, अभ्यासः अस्ति, चित्रं दृष्ट्वा रिक्तस्थानानि उचितैः शब्दैः पूरयत इति अस्ति। अत्र चित्रं दृष्ट्वा, जानाति वा दृष्ट्वा इत्युक्ते किम् इति? त्वान्तरूपम्, आफ्टर् सीयिङ्ग् इट्, त्वान्तरूपं। सो यत्र त्वान्तरूपम् आगच्छति ततः पूर्वं द्वितीया विभक्ति भवति। चित्रं दृष्ट्वा, पाकं कृत्वा, कूपीं स्वीकृत्य, लैक् द अस्तु, रिक्तस्थानानि पूरयत। रिक्तं मीन्स् एम्टि, स्थानं प्लेस्, रिक्तस्थानानि पूरयत। कैः पूरयत, विद् वाट्, कैः पूरयत, शब्दैः पूरयत। कीदृशशब्दैः, वाट् टैप् आफ् शब्दम्? उचितैः शब्दैः, उचितैः शब्दैः पूरयत। सो अत्र दिस् इस् अ विशेषणविशेषभाव। सो उचितैः, द रूपम् इस् डिपेण्डेण्ट् आन् शब्द। इफ् इट् इस् शब्दः, इट् विल् बि उचितः, उत्तम। इफ् इट् इस् शब्दस्य, इट् विल् बि उचितस्य, उत्तमम्। सो अत्र शब्दैः, अतः उचितैः। अस्तु, मुनिवरस्य पुरतः, ओके, हू केन् डिस्क्रैब् दिस्? केतकी भगिनी, आरम्भं कुर्मः। मुनिवरस्य
छात्राः पुरतः सन्ति।
उत्तम, मुनिवरस्य पुरतः छात्राः सन्ति, उत्तमं भगिनि। अग्रे सागरि भगिनी, मुनिवरस्य पृष्ठतः, पृष्ठतः इत्युक्ते
बिहैण्ड्,
पृष्ठतः उत्तमं मुनिवरस्य पृष्ठतः किम् अस्ति
कुटीरः
कुटीरः अस्ति वृक्षः अस्ति गृहम् अस्ति कुटीरः गृहम् आश्रमं वृक्षः किमपि उत्तमम् अस्तु
वर्णकुटीरः अस्ति वर्णकुटीरः अस्ति
भगिनी वदतु
पृष्ठतः पर्णकुटीरः अस्ति केन् वी टेल् दट् पर्णकुटीरः
पर्ण दट् इस् ओन्लि द रूफ् खलु दट् इस् छदः एव पर्णे पर्णैः सन्ति कुटीरः अस्ति उटजम् अपि वदामः उटजम् अस्ति अस्तु
अत्र वृक्षः किमपि रिक्तस्थलानि पूरयामः खलु
आमामाम् उचितैः शब्दैः सम्थिङ्ग् अप्राप्रियेट् अप्राप्रियेट् उचितैः शब्दैः किमपि
अस्तु
अस्तु उत्तमं भगिनि वदतु
कुटीरशब्द नपुंसकलिङ्ग वा पुल्लिङ्ग वा
कुटीरः कुटीरः पुल्लिङ्ग इति चिन्तयामि सन्देहः अस्ति चेत् वयं पश्यामः एकनिमिषम् अहं दर्शयामि अस्तु कुटीरम् इति अहं चिन्तयामि कुटीरं
कुटीरम् अहमपि
कुटीर इति कुटीर नपुंसकलिङ्गपदम् ओ द्वौ अपि अस्ति नपुंसकलिङ्गमपि अस्ति
पुल्लिङ्गपि
पुल्लिङ्गमपि अस्ति सो अत्र अत्र पश्यतु नपुंसकलिङ्ग अपि अस्ति पुल्लिङ्ग अपि अस्ति
कुटीरः कुटीरं बोधयन्ति धन्यवादः
अस्तु भगिनि अस्तु सन्ध्या भगिनी मुनिवरस्य उपरि
मुनिवरस्य उपरि वृक्षस्य शाखाः अस्ति
शाखाः हियर् इट् सेस् अस्ति बट् वी केन् चेञ्ज् इट् टु सन्ति वृक्षस्य शाखाः सन्ति पर्णानि सन्ति वी केन् इमेजिन् पर्णानि सन्ति किमपि अस्तु परमेश्वर महोदय मुनिवरस्य वृक्षस्य मुनिवरः
मुनिवरः वृक्षस्य नीचे
अधः
अधः अस्ति
मुनिवरः वृक्षस्य अधः अस्ति सो अतः अहं चिन्तयामि पुस्तके मुनिवरस्य उपरि वृक्षः इति उत्तरम् अस्ति इति अहं चिन्तयामि मुनिवरस्य मुनिवरः वृक्षस्य अधः अस्ति अस्तु सविता भगिनी कुटीरस्य अन्तः
कुटीरस्य अन्तः
अन्यकोपि मुनिवरः अस्ति उत्तमम् अन्यकोपि मुनिवरः अस्ति उत्तमं भगिनि रम्या भगिनी मुनिवरः कुटीरात् कुत्र अस्ति
मुनिवरः कुटीरात् बहिः
उत्तमं बहिः अस्ति कुटीरात् बहिः सर्वत्र वयं षष्टिविभक्तिरूपम् उपयोगं कुर्मः परन्तु बहिः इति अस्ति चेत् पञ्चमी आगच्छति कुटीरात् उत्तमं भगिनि कुटीरात् बहिः अस्ति अन्य कोऽपि अस्ति वा भक्तानाम् अन्य कः अस्ति स्वागतं महोदय भक्तानाम् इति बहुवचनं खलु भक्तानां कुत्र मुनिवरः अस्ति
भक्तानां पुरतः
उत्तमं भक्तानां पुरतः मुनिवरः अस्ति उत्तमं महोदय अस्तु
भगिनी क्षम्यताम् मुनिवरस्य अधः किम् अस्ति
मुनिवरस्य अधः अहं चिन्तयामि चर्मः अस्ति इति मृगस्य चर्मः ओ ऐडन् ओ तत् न पठितं खलु मुनिवरस्य अधः व्याघ्रचर्म वा अथवा अन्य हरिणस्य चर्मः वा किमपि अस्ति
धन्यवादः
अवगतं खलु द स्किन् आफ् सम् एनिमल् मृगस्य चर्मः अस्ति अस्तु अग्रिम अभ्यासम् ऊहितेन उचितेन
भगिनि if you see we can't see the skin so if you were to say like a platform how would you that's like a platform right
so you can say apalakam asti
apalakam is it platform
no just palakam palakam,
palakam.
Like a board palakam
oh okay mm. mana mari
mana so we say palaga also right manai palaga kondu like that palakai palakam
astu dhanyavada
astu munivarasya dakshinatah kim asti
kamandalam asti
kamandalam asti dakshinatah kamandalam asti atra मुनिवरस्य छात्राः सन्ति खलु छात्राणाम् अधः किम् अस्ति किमपि वस्त्राणि खलु वस्त्र आसन्दम् आसन्दः एक्चुलि वस्त्र आसन्दः अस्ति अस्तु अग्रे गच्छामः ऊहितेन उचितेन शब्देन रिक्तस्थानानि पूरयत् ऊहितम् इत्युक्ते अनुमानं इमेजिन् इमेजिन् अस्यूम् लैक् द ऊहितेन उचितेन शब्देन सो अत्र उचितैः शब्दैः बहुवचनं सो अत्र एकवचनं उचितेन शब्देन उचितेन सो अत्र सर्वत्र एकवचनमेव तृतीया विभक्ति एकवचनं उचितेन शब्देन ऊहितेन उचितेन शब्देन सुन्दरं खलु उचितेन ऊहितेन उचितेन शब्देन रिक्तस्थानानि पूरयत् अस्तु अस्तु केतकी भगिनि याने इत्युक्ते वाहने चालक सो अत्र पृष्ठस्य न पृष्ठतः चालकस्य पृष्ठतः बिकास् पृष्ठतः इस् एन् अव्ययं भगिनि इट् केनाट् चेञ्ज्
ओके ओके
पृष्ठतः वामतः अन्तः बहिः पुरतः उपरि अधः
ओके भगिनि
एतानि पदानि अव्ययानि अस्तु याने चालकस्य पृष्ठतः जनाः उपविशन्ति उत्तमं सागरि भगिनि अग्रे
कक्षायाम् अध्यापकस्य पुरतः छात्राः उपविशति
उत्तमम् कक्षायाम् अध्यापकस्य पुरतः छात्राः आक्चुलि दिस् शुड् बि उपविशन्ति खलु छात्राः उपविशन्ति दोषः अस्ति मुद्रणदोषः अस्ति उट्टङ्कनदोषः अस्तु
कक्षायां
दट्स् अ वेरि गुड् क्वश्चन् सो देर् आर् टु वर्ड्स् फार् क्लास् ओके One is kakshya, the other one is kaksha eva.
Okay.
So it is kakshayam atava kakshyayam. Dau api samanam eva.
Astu padini. Thank you.
Astu. So this is upavishanti. Astu. Agre Sandhya Bhagini.
Rikshasya adhah shransah pathikah upavishanti.
So atra api upavishati.
Hello. Correct.
So they flipped it. Shrantah patikaha upavishati. Patikaha ityukte traveling. Hello. Itaha tataha gacchati tasaha. Astu.
Shrantah tired.
पतिकः पुल्लिङ्गपदम् एकवचनम् अतः श्रान्तः अपि एकवचन पुल्लिङ्गपदम् अस्तु परमेश्वर महोदय
भगिनि
वदतु भगिनि
एक प्रश्नं
प्रश्नः वा
प्रश्नः कक्षायाम् अध्यापकस्य लैट्ली
कन्फ्यूसिङ्ग् सो कक्षायाम् इति सप्तमी विभक्ति वर्गे प्रकोष्ठे वर्गे अध्यापकस्य पुरतः छात्राः उपविशन्ति सो अत्र वी केन् डू वन् अल्पविरामः कमा कक्षायाम् अध्यापकस्य पुरतः छात्राः उपविशन्ति अस्तु परमेश्वर महोदय
प्रथमस्य अट्टस्य प्रथमस्य अट्टस्य द्वितीय अष्ट भवति
अट्टः अट्टः इत्युक्ते फ्लोर् इति सर्वङ्ग् प्रथम अट्ट दिस् इस् द द्वितीय अट्ट
okay
like the levels
apadidyasya adhya dvitiyasya
no prathamasya attasya kutra dvitiyah attah asti
oh prathamasya attasya upari
upari dvitiyah attah bhavati uttama uttama savita
sorry can be also say prishtatah
no I drew it differently but it is above
it's a level is it
level
the first step second step
yeah it's a level attam is like you know in the olden days we have like a loft on top of the just under the ceiling so that's what this is
attic
attam yeah we call it attam in Tamil attam attic yeah here we call it attic astu parameshwar mode abhavat savita bhagini
aham bhagini phalasya adah bijam bhavati
फलस्य कुत्र बीजं भवति फलस्य
इन्सैड्
इन्सैड् खलु अधः इस् अण्डर् लैक् वृक्षस्य अधः श्रान्तः पतिकः खलु
फलस्य
अन्तः फलस्य अन्तः बीजं भवति सो देर् इस् अनदर् वर्ड् अन्ते दट् इस् अन्तः दट् इस् अन्ते दट् इस् एण्ड् सो दट् इस् नाट् एन् अव्ययम् दट् इस् नाट् सो वि केन् से अन्ते वदतु अन्ते स्वीकरोतु परन्तु अन्तः इति अव्ययम् परिवर्तनं न भवति फलस्य अन्तः बीजं भवति अस्तु रम्या भगिनि
रेखातः यः गच्छति सः रेखातः बहिः यः गच्छति सः बाहुः
बाह्यः उत्तमं रेखातः बहिः यः गच्छति सः बाह्यः हि इस् औट्सैड् इति बाह्यः उत्तमं महेश महोदय
सारि भगिनि केन् यु आल्सो से रेखात्
नो नो अत्र रेखा इति स्त्रीलिङ्गपदं सो अत्र रेखायाः सो सो इट् विल् बि लैक् दिस् रेखायाः सो दिस् इस् द
पञ्चमी
विभक्ति फार् रेखा रेखायाः बहिः यः गच्छति सः बाह्यः अस्तु उत्तमः प्रश्नः वा भगिनि
सारि भगिनि एनि थम् रूल्स् वेन् वि यूस् रेखातः रेखायाः
सो रेखातः इस् अ is a easy way to use panchami
okay
so atra like naditah kupitah pustakatah grihatah hastatah pullingam va strilingam va napumsakalingam va akara ikara sarvatra tah iti yojayamah
oh
parantu sakshat vibhakti iti pashyamah chet pullinge नपुंसकलिङ्गे आत् आगच्छति गृहात् हस्तात् इत्यादि स्त्रीलिङ्ग अस्ति चेत् याः परन्तु षष्टिविभक्ति अपि याः एव रेखायाः वर्णः रक्तः रेखायाः बहिः मा गच्छतु सो तत्र किञ्चित् भ्रमः आगच्छति देर् बि लिटिल् बिट् कन्फ्यूशन् सो अतः तः इस् ईजियर् टु यूस् बट् द प्रापर् विभक्ति इस् याः अस्तु महेश महोदय स्वागतं भगिनि ओ महेश महोदय नास्ति वा अन्य कोऽपि अस्ति वा एकनिमिषं पश्यामि अस्तु अन्य कोऽपि नास्ति इति शारदा भगिनि ओ शारदा भगिनि भारतस्य
पृष्ठतः वामतः सिन्धुसागरः ओ अरेबियन् सी to the left dakshinatah
left is vamatah
bharatasya vamatah sindhu sagarah asti
sindhu sagarah asti astu ketaki bagini agre
am bagini bharatasya
antarjalasya kleshah bhavati
अस्तु महोदय स्वागतम् स्वागतम् अस्तु केतकी भगिनी वदतु भारतस्य
बङ्गालकोलितः गङ्गासागरः अस्ति
सो अत्र सो यु हाव् टु फिल् इन् हियर् ओन्ली भगिनि सो दिस् इस् जस्ट् इन् सार् सेङ्ग् गङ्गासागरः गङ्गासागरस्य अन्य नाम अस्ति बङ्गालकोलि सिन्धुसागरस्य अन्य नाम अस्ति अरबीसमुद्रः इति
सो वाट् शुड् ऐ से
भारतस्य कुत्र अस्ति गङ्गासागरः कुत्र अस्ति
पूर्वम्
इत्युक्ते टु द रैट् सैड् खलु दक्षिणतः
दक्षिणतः न भगिनि
कुत्र अस्ति
बङ्गालसागर इस् इन् नियर् कल्कत्ता
आम्
सो इट् इस् इन् ईस्ट् सैड्
Oh, you want to do the east side. Okay, so Purvataha.
Purvataha Ganga Sagarah Asti.
Purvam. Bharatasya Purvam. Purvadishi. In the east direction. Bharatasya Purvadishi Ganga Sagarah Asti. Atava Dakshinataha Ganga Sagarah Asti.
Asti Bhagini. Dhanyavada.
Mahesh Mahodaya?
आम् भगिनि वृत्तस्य परिधेहे गणेशकेन्द्रबिन्दुः भवति
आम् मध्ये उत्तमं वृत्तं
मध्ये केन्द्रबिन्दुः भवति
उत्तमं सो वृत्तम् इत्युक्ते सर्कल् या वृत्तम्
भगिनी अर्थं पूर्वं वदतु
वृत्तस्य सो दिस् इस् वृत्तं वृत्तस्य परिधेहे सर्कम्स्टेन्स् मध्ये केन्द्रबिन्दुः अस्ति सो दिस् इस् केन्द्रबिन्दुः
परिधेहे सर्कम्स्टेन्स् इस्
इट् सर्कम्स्टेन्स् परिधेहे मध्ये
मध्ये
वृत्तस्य परिधेहे मध्ये केन्द्रबिन्दुः अस्ति अन्तः अपि सत्यमेव अन्तः मध्ये उत्तमम् अस्तु सागरी भगिनि
देवालयात् बहिः भक्ताः पादरक्षाः स्थापयन्ति
उत्तमं देवालयात् बहिः भक्ताः पादरक्षाः स्थापयन्ति उत्तमं तत् उत्तमम् अस्तु किम् अस्ति सो अत्र अग्रे पठामः रिक्तस्थानानि सङ्ख्यया सूचितैः पदैः पूरयत सङ्ख्यया सूचितैः सो अत्र एकम् इति सङ्ख्या अस्ति अत्र एकम् इति सङ्ख्यायाः पार्श्वे अत्र अस्ति अतः भवती अत्र एव तिष्ठतु पञ्च इति अस्ति पञ्च इति स्थाने किं लेखनीयं कुत्र भवती अत्र एव तिष्ठतु कुत्र अपि मा गच्छतु अवगतं खलु कथं लेखनीयम् इति
आं भगिनि
अस्तु सो अत्रैव तिष्ठतु इत्युक्ते कुत्रापि मा गच्छतु कुत्र अपि मा गच्छतु सो अत्र इफ् इसे कुत्रापि गच्छतु गो समवेयर इति अर्थं भवति परन्तु कुत्रापि मा गच्छतु इति वदामः चेत् डोण्ट् गो एनीवेर् सो समवेयर विल् चेञ्ज् टु एनीवेर् ओके अपि च गच्छतु इति वदामः चेत् गच्छतु मा गच्छतु सो न विल् चेञ्ज् टु मा ओके अस्तु अग्रे भगिनि सद्या भगिनि भवान्
तत्र उपविश्य पठतु
तत्र उपविश्य पठतु उपविश्य इति रूपं किम् उपविश्य
प्रेसेण्ट् कण्टिन्यूस्
ल्यबन्तपदं ल्यबन्तपदं दट्स् दि आन्सर् ऐ वास् लुकिङ्ग् फार् ल्यबन्तपदं ल्यबन्तपदम् इत्युक्ते when we say after doing this. So, atra karya dvayam asti. Bhavan upavishatu patatu. So, karya dvayam asti chet pratama karyasya lyabantam atava tvanta padam svikurmaha vayam. Tvanta pada rupam svikurmaha. Tvanta padam upasargaha nasti chet tvanta padam. उपसर्गः अस्ति चेत् ल्यबन्तपदम् अवगच्छन्ति खलु सर्वे अस्तु परमेश्वर महोदय उपविश्य अनन्तरं पठतु भवान् उपविशतु अनन्तरं पठतु वाक्यं मिलित्वा वदामः चेत् भवान् उपविश्य पठतु
किमर्थं सर्वत्र वृथा अटति भवति
सर्वत्र वृथा अटति भवति वृथा इत्युक्ते कारणं विना कारणं विना किमर्थं वृथा अटति लैक् वेस्टिङ्ग् टैम् लैक् दट् अस्तु अग्रे सविता भगिनी
आं भगिनि
भवान् अस्तु
ऐ नोट् एबल् टु सी दट्
ऐ नो सी बट् इफ् ऐ डू दिस् वे देन् यु केनाट् सी वाट् इस् रिटन् आन् दिस् सैड् अस्तु ओके सिक्स् इस् एकत्र
डाश् जलमस्ति इस् दट् नोट् दट् वन् भगिनि
Bhagini, what's your question?
Hey, I'm not able to see yeah.
6 is ekatra, 5 is kutra.
5 is kutra. Kutra api ma gachyatu.
No, kutra api ma gachyatu na. Bhavati ekatra vastu sthapayati अन्यत्र अन्वेषणं करोति एकत्र कुत्र एकत्र अन्यत्र सारी डु यु हाव् द बुक् भगिनि इफ् यु हाव् द बुक् यु लुक् अट् द बुक्
नो ऐ डोण्ट् हाव् द बुक् भगिनि
ओके सो अत्र एकत्र Number 6 is ekatra. Number 4 is anyatra.
Bhagini, ekatra meaning?
Ekatra means in one place. And it also means everyone together. Astu. So, atra, bhavan ekatra vastu sthapayati. अन्यत्र अन्वेषणं करोति
भवान् एकत्र वस्तु स्थापयति अन्यत्र अन्वेषणं करोति
अन्वेषणं करोति
अकरोति
अन्वेषणम् इत्युक्ते किं भगिनि
अन्वेषणं टु फैन् लैक् अहं मम उपनेत्रं कुत्र इति सर्वत्र पश्यामि अन्वेषणं to search to search sarvatra anveshanam karoti iti astu panchama ramya bhagini
pustakam bhavatah pustakam kutra asti iti aham na janami
bhavatah pustakam kutra asti iti aham na janami astu uttama astu agre mahesh mahodaya
अत्र जलमस्ति अतः सोरि तत्र जलमस्ति
एकनिमिषं सोरि भवतु महोदय अत्र जलमस्ति
तत्र जलमस्ति
तत्र जलमस्ति
अत्र भवान् उपविशतु
अस्तु तत्र जलमस्ति अतः अत्र भवान् उपविशतु उत्तमम् अस्तु अग्रे अन्य कोऽपि अस्ति खलु न केतकी भगिनि सागरी भगिनि एकनिमिषं भगिनि लेट् मी जस्ट् चेक् अन्य ओ शारदा भगिनि सोरि
ओके भगिनि
शारदा
सर्वत्र देवः अस्ति इति भारतीयाः विश्वसन्ति.
सर्वत्र देवः अस्ति इति भारतीयाः विश्वसन्ति. उत्तम. सो अत्र विश्वासम् इति पदम् उपयोगं कुर्मः चेत् सप्तमी विभक्ति भवति. सर्वत्र देवः कुत्र अस्ति इति भारतीयाः इस् प्रथमा विभक्ति आक्चुलि.
प्लूरल् बहुवचनं.
बहुवचनं भारतीयः भारतीयाः. भारतीयः विच् मीन्स् पीपल् हु केम् फ्रम् भारतम्. भारतं भारतीयः भारतीयाः विश्वसन्ति. अस्तु अग्रे केतकी भगिनि,
भवतः गृहं कुत्र अस्ति?
उत्तमं. भवतः गृहं कुत्र अस्ति? उत्तमं. सागरि भगिनि.
मम गृहम् इदानीं तत्र नास्ति, अन्यत्र अस्ति.
उत्तमं. तत्र अन्यत्र. उत्तमं. सन्ध्या भगिनि.
भवान् सर्वत्र मा पश्यतु.
अत्र पश्यतु. उत्तमम्. उत्तमं. सो अग्रे सप्तमी विभक्ति अस्ति, अतः वयं सप्तमी विभक्तिरूपं दृष्ट्वा अग्रे गच्छामः. वदतु.
अहं तृतीयवाक्यं न अवगतवती. किमर्थं सर्वत्र वृथा अटति भवति?
वृथा मीन्स् अन्नेसेसरिलि. वृथा
अटति.
अटति मीन्स् टु गोयिङ्ग् अरौण्ड्. अटति लैक् रोमिङ्ग् अरौण्ड्. Don't loiter, like they say, right? Don't loiter unnecessarily, wasting time.
Oh.
Don't waste time loitering. Dhanyavada Maudhya. Loitering is the correct word. Loitering. Loitering, yeah, loitering itself means you're wasting time.
Wasting, yeah.
Oh. Yeah. Vritha means wasting.
Wait, oh.
So, atra saptami vibhakti rupam asti. सप्तमी विभक्ति. एकनिमिषं चार्ट् भवति. सो अत्र सप्तमी विभक्ति एवम् अस्ति, रामे रामयोः रामेषु. रामे रामयोः रामेषु. हस्ते हस्तयोः हस्तेषु. हस्ते हस्तयोः हस्तेषु. स्यूते स्यूतयोः स्यूतेषु. पुनः पुनः वदन्तु, देन् इट् विल् गो इन् युर् हेड् लैक् दट्. स्यूते स्यूतयोः स्यूतेषु. आपणे
आपणयोः
आपणेषु. आपणे आपणयोः आपणेषु.
आपणेषु.
बालकः
बालकयोः बालके बालकयोः बालकेषु.
त्रीणि रूपाणि अस्ति खलु, बालके बालकयोः बालकेषु. बालके बालकयोः बालकेषु. अस्तु. मेघे
मेघायां मेघयोः मेघासु.
सो न भगिनि, मेघे मेघयोः मेघेषु.
भगिनि मेघे
मेघः मेघः बिकेम् मेघे. मेघे मेघयोः मेघेषु. अत्र अस्ति खलु मेघे मेघयोः मेघेषु.
ओ
मेघा ऐ थिङ्क् भगिनि. मेघा फेमिनिन् जेण्डर्.
Yeah, so this is मेघः. Because if you learn it wrongly, it's difficult to correct. So मेघे मेघयोः मेघेषु. अस्तु. आलयः
आलये आलयोः आलेषु. आलयेषु.
सर्वे वदन्तु कृपया आलये आलयोः आलेषु आलेषु उत्तमम् अन्य किम् अस्ति पुल्लिङ्गपदं वदतु कृपया
वृक्षः
वृक्षे वृक्षयोः वृक्षेषु रजकः
रजकेषु
प्रथममस्ति रजके खलु रजके रजकयोः रजकेषु रजकः इस् प्रथमा विभक्ति रजके रजकयोः रजकेषु रजकेषु अस्तु सो एवमेव नपुंसकलिङ्गे नपुंसकलिङ्गपदे अपि समानरूपमेव गृहे गृहयोः गृहेषु वदतु गृहे गृहयोः गृहेषु
गृहे गृहयोः गृहेषु
उत्तम गृहे गृहयोः गृहेषु गृहे गृहयोः गृहेषु उत्तम अस्तु पुस्तके पुस्तकं
पुस्तकं
वदतु भगिनि केतकी भगिनी वदतु पुस्तकं
पुस्तके पुस्तकयोः पुस्तकेषु
उत्तमं पुस्तके पुस्तकयोः पुस्तकेषु उत्तमम् इदानीं स्त्रीलिङ्गपदम् सो अत्र एव सु आगच्छति अत्र एव सु सीत् रमा रमायां रमयोः रमासु
रमयोः
काशी काशी How can we say? Kashiyam?
Kashiyam.
Kashiyam.
Kashiyam. Kashiyam.
Kashiyam. Kashiyishu. Kashiyam. Kashiyoho. Kashiyishu.
Okay.
Nadi.
Nadyam. Nadyoho. Nadishu.
Uttamam. Nadyam. Nadyoho. Nadishu. Kupi.
Kupyam. Kupyoho. Kupishu.
कूपीषु शाला
शालां शालयोः शालेषु
शालायां शालायां शालयोः शालासु शालासु
शालासु
कक्ष्या
कक्षायां कक्षयोः कक्षासु
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 अग्रे वयं सर्वनामपदं पश्यामः सर्वनामपदम् इत्युक्ते लैक् तद् इति मूलरूपमस्ति तद् पुल्लिङ्गे सः इति प्रथमाविभक्तिरूपं सः स्त्रीलिङ्गे सा इति प्रथमाविभक्तिरूपं नपुंसकलिङ्गे तत् तत् इति प्रथमाविभक्तिरूपम् इदानीं तत् पुल्लिङ्गे नपुंसकलिङ्गे समानरूपम् तृतीया विभक्ति आरभ्य पुल्लिङ्गे नपुंसकलिङ्गे समानरूपमेव भवति सो अत्र तस्मिन् तयोः तेषु तस्मिन् तयोः तस्मिन् तयोः तेषु तस्मिन् तयोः तेषु हौ डु वि से how do we say in that bag there is a pencil ka vartum vadatu mahodaya tasmin syute
ankani asti
ankani asti tasmin syute so ankani asti syutah is pullinga padam so it is syute
syute
tasmin is like in that unspecific thing something unspecific so okay. It can mean anything right in that hand in that box in that house like that so tasmin tasmin syute lekhani asti
lekhani asti
lekhani asti pencil is there ankani asti there is nothing there, how do you say tasmin syute?
Kutrapi nasti.
Kutrapi nasti.
Kimapi nasti. Kimapi nasti.
Kimapi nasti.
Kimapi nasti. Astu. So how do we say the same thing for strilinga? There is a pen in that box.
Tasyam.
अङ्कनी अस्ति तस्यां पेटिकायाम् ओके
पेटिकायां
बिकास् आफ् आकारान्त स्त्रीलिङ्ग तस्यां बिकास् इट् रेफर्स् टु आल् स्त्रीलिङ्ग
रैट्
ओके सपोसिङ्ग् ऐ वाण्ट् टु से देर् इस् नो वाटर् इन् दट् रिवर्
तस्यां नद्यां जलं नास्ति
तस्यां नद्यां जलं नास्ति ओके हौ डि वि से इन् दिस् रिवर् देर् इस् नो वाटर् एतस्यां नद्यां जलं नास्ति सो अत्र सो तस्यां वि केन् एड् एन् ए बिफोर् इट् एतस्यां But the Nadyam doesn't change. It just stays Nadyam. Okay? So therefore, this Tasya and Tasyam is a Visheshana of Nadi. Whatever the word is, that's what this also will become. Udaharanatam. Nadi is a Srilinga Padam. But the Tad will take Srilingam based on the Nadi. And the Nadi is Saptami Vibhakti, Nadyam. Therefore, it will take Tasyam. Okay, so this is also Visheshana Vishesha Bhavaha in action. Avagatam va?
Ambagini.
Okay. Supposing another question. Who lives in that house? How do we say?
Tasmin grihe kutra vasati.
Tasmin grihe not kutra. Kaha vasati. Kaha vasati. Tasmin grihe kaha vasati. Tasmin grihe kaha vasati.
Kaha vasati.
Kaha vasati. Another sentence. In which house do you live?
Kasya. No.
Vadato.
Kasya gruhe.
Kasmin gruhe.
Kasmin gruhe. Bhavan vasati.
Bhavan vasati. If it is a male. Atava bhavati vasati. If it is a female.
Kasya. Kasmin.
Kasmin, because of grihe. Grihe is saptami.
Okay.
So tasmin should be used. Because grihe is napumsakalinga and saptami. So napumsakalinga and saptami is this. Astu. Idanim vayam abhyasa darshinim pratig. Astu. So, bhavati, bhavan. इति पदस्य मूलरूपं भवत् इति इति अस्ति सपोजिङ्ग् ऐ वाण्ट् टु से ऐ हेव् फेत् इन् यू टु अ मेल्
भवतः
सो विषये भवति भवति मम विश्वासः अस्ति
भवति मम विश्वासः अस्ति
भवति सो इट् बिकम्स् ह्रस्व भवति
भवति
भवति मम विश्वासः अस्ति ऐ हाव् फेत् इन् राम लार्ड् राम
अहं न राम
सो whenever we use words like respect and faith and bhakti and Preeti. All these we use Saptami Vibhakti. Saptami Vibhakti. उदाहरणार्थ कुत्र अस्ति अस्तु अत्र वदतु
सपोज ऐ वाण्ट् टु से दट् इन् मै हौस् देर् इस् अ चेर् सो वुड् ऐ से मयि गृहे एकः आसन्दः अस्ति
उत्तमप्रश्नः सो हौ डु यु से नो 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 वदतु
Would I say mama grihe because it is a possessive?
Mama grihe eva samyak. Mama grihe asandaha asti.
So when would we use mayi?
Mayi, like in me.
In.
Have faith in me. Supposing you are telling somebody, you are trying to convince somebody. Then you say mayi vishwasam sthapayatu. Vishwasah sthapayatu.
Okay.
Vishwasah bhavatu.
Okay.
Bhavatu.
Astu.
So, atra, when do we use Saptami Vibhakti? These two we know already. Kutra and Kada. Bhavati kutra vasati. Aham New York nagare vasami. Aham Bharata deshe vasami. गृहे अस्मि इदानीं कुत्र अस्ति गृहे अस्मि भवती कदा खादति सप्तवादने खादामि अस्तु एण्ड् देन् वेन् वि यूस् वर्ड्स् लैक् आसक्तिः आसक्तिः मीन्स् इण्ट्रेस्ट् मम संस्कृते मम आसक्तिः अस्ति संस्कृते मम आसक्तिः अस्ति देन् आदरः मीन्स् रिस्पेक्ट्
मम आदरः भगिनी अस्ति
सो भगिनी इस् अ स्त्रीलिङ्गपदं खलु सो वाट् इस् द सप्तमि विभक्ति आफ् दट्
भगिन्या
भगिन्याम् अस्ति उत्तम
मम आदरः भगिन्याम् अस्ति
उत्तमं मम आदरः भगिन्याम् अस्ति कुत्र मम आदरः भगिन्याम् अस्ति एवमेव प्रीतिः अपि मम प्रीतिः भगिन्याम् अस्ति
मम प्रीतिः भगिन्याम् अस्ति
अस्ति सो इफ् यु ओके सो अभिरुचिः सेम् एस् आसक्तिः अभिरुचिः आल्सो आसक्तिः समान अर्थकपदम् संस्कृते मम अभिरुचिः अस्ति मम आसक्तिः इण्ट्रेस्ट् अभिरुचिः इस् मोर् लैक् इच्छा कैण्ड्
मम अभिरुचिः अस्ति वाक्ये हौ केन् ऐ से वाक्ये संस्कृतं वाक्यम्
संस्कृतवाक्यनिर्माणे टु मेक् संस्कृत सेण्टेन्सेस् खलु संस्कृत सो यु से द सप्तमी फस्ट् भगिनि संस्कृतवाक्यनिर्माणे मम अभिरुचिः अस्ति
संस्कृतवाक्यं निर्माणे मम अभिरुचिः अस्ति
सो डोण्ट् से वाक्यं निर्माणे वाक्यनिर्माणे संस्कृतवाक्यस्य निर्माणे
दट् इस् ईज़ि संस्कृतवाक्यस्य निर्माणे मम अभिरुचिः अस्ति
अभिरुचिः अस्ति कृपा देवः मयि कृपां प्रदर्शयति सो दिस् इस् अनदर् वे आफ् सेयिङ्ग् इट्
देवः ओन्लि देवः इस् सप्तमी कृपाम् इस् अ द्वितीया
Devaha and then I said Mayi, in me. Somebody asked, right? How do we say Mayi? In me. Devaha Mayi Kripaya.
Kripaya.
So we can make a sentence like that. He Deva Mayi Kripaya Kripam Pradarshayatu.
मयि
शोमि कृपा
Krupa Akaranta.
Krupa Akaranta. So, this can be done using two ways of sentences. Samskrite Mama Asaktihi Asti. Using Shashti Vibhakti. Mama Asaktihi Asti. Samskrita Vakya Nirmane Mama Preetihi Asti. Like that. Or if you want to use Aham. Samskrita Vakya Nirmane Aham Preetim Pradarshayami.
Preetim Pradarshayami.
Preetim Pradarshayami. So all this is in Vibhakti Vallari. So I'm going back and forth. Okay, so this is here. Yeah, so Atra. Samskrita Adhyayane became Samskrita Adhyayane Mama Mahati Asaktihi Asti. So if you use Asaktihi, then you have to use Shashti Vibhakti.
Asakti Shashti Vibhakti.
Mama Asaktihi Asti. Mama Asaktihi Asti. Atava you say Samskrite.
Mama Pritihi.
Samskrite Janah Preetim Pradarshayati. So the Preetim will become Dvitiya Vibhakti. Preetim Pradarshayanti. Iti.
So, what should we put? Sanskrite Janah?
Sanskrite Janah Preetim Pradarshayanti. So we go back to Abhyasa Darshani.
Bhagini, in that sentence, it would be dangerous to translate from English, right? It's like my interest. It's not like I am interested in Sanskrit. So that would be a wrong translation, right?
So you can start with Saptami Vibhakti. Sanskrite Aham. Asaktim Pradarshayami.
Okay.
Aham. If you use Aham, then it will be Asaktim.
Okay. I cannot say Sanskrite Aham Asaktihi Asti. I am interested in Sanskrit.
No.
It's wrong.
So you have to say Sanskrite Mama Asaktihi Asti.
My interest lies in Sanskrit.
So you have to say Mama
Abhiruchi. Mama Asakti Sanskrite Asti.
Mama Asakti Sanskrite Asti.
That makes it easier. Thank you.
Mama, if you start with Mama, then it has to be Asakti. But if you start with Aham, Kutra Asti Aham. Aham
Sanskrite Ruchi Rakhami.
No.
Ruchi Rakhami.
So you had to say Ruchim.
Ruchim.
Ruchim. Ruchim.
Aham Sanskrite Ruchim.
Pradarshayami. So instead of Janaha, you can say Aham.
Aham.
If you want to do this beginning, So this will become Yami.
Pradarshayami.
Sanskrite Aham Preetim Pradarshayami.
I only find the Asmat usage a little complicated, Bhagini. The rest of it is fairly
straightforward.
Bhagini, Aham Kupyam Jale Pradarshayami.
Aham Kupyam
Jale Pradarshayami.
Kupyam Jalam Pradarshayami.
Jalam.
Dvitiya Vibhakti. It has to be Dvitiya Vibhakti.
Correct. Kupyam Jalam Pradarshayami.
Uttama. Kupyam Jalam Pradarshayami. So if you use Aham, you have to use Dvitiya Vibhakti. If you use Shashti, then you use Pratama Vibhakti. Supposing you want to say, I'm interested in Sangeetam. How will you say? Who wants to try that?
अहं रुचिः
मम अभिरुचिः संस्कृते अस्ति. हौ केन् यू से अनदर् वे सम्बडि एल्स्?
अहम्
इस् करेक्ट्, सङ्गीतम् इस् नाट् करेक्ट्. सङ्गीते अहं सङ्गीते अभिरुचिं प्रदर्शयामि. अवगतम्? इफ् यु स्टार्ट् वित् अहं देन् इट् इस् द्वितीय, इफ् यु स्टार्ट् वित् मम देन् इट् इस् प्रथम. ओके, अस्तु. ओके अस्तु. So we go for Abhyasa Darshini. We will come back to Vibhakti Vallari another time. Okay? We will go back and forth. Astu. Kutra iti atra iti asya iti asya prashna vakyasya vachakasya upayogaha yada bhavati. Yada means when. Yada bhavati tada uttaram saptami vibhaktau bhavati. Why is it vibhaktau? Because it is vibhaktihi. The saptami vibhakti of vibhaktihi is vibhaktau. Okay, so here is an expanded version of saptami vibhakti. We have ikaranta, ukaranta, rukaranta for pullinga, strilinga, napumsakalinga, for people who want to know more. But you know, we don't need to confuse like this. But if you want to know more, this is the thing. This is the chart.
Dhanyavada Bhagini.
Nishchayana. So, atra. Atra. Udaharana. Bhavati kutra vasati. Aham grame vasami. Gramaha pullinga padam. Grame vasami. Lekani kutra asti. Lekani koshe asti. Koshe ityukte? Pocket.
Pocket.
Pocket. Pocket.
लेखनी कोशे अस्ति, कोशः कोशे. किन्तु कुत्र गच्छति इत्यस्य उत्तरेण गृहं गच्छामि. सो गृहम् इति विभक्ति का? द्वितीय. प्लीस् रिमेम्बर्. ओके, गच्छामि, आगच्छामि, आल् दोस् गमनक्रिया, गोयिङ्ग्, कमिङ्ग्, मूव्मेण्ट्. वेन् यु आर् नाट् देर् येट्, तत्र द्वितीया विभक्ति एव भवति. अहम् इदानीं गृहे अस्मि, अनन्तरम् अहम् आपणं गच्छामि, अनन्तरम् अहम् आपणे भविष्यामि, ततः अहं देवालयं गच्छामि, अनन्तरम् अहं देवालये भविष्यामि, अनन्तरम् अहं देवालयतः गृहम् आगच्छामि. अवगतम्? लैक् दट्. अस्तु अस्तु, इदानीं वयं अभ्यासं कुर्मः. ओके, का आरम्भं करोति? केतकी भगिनी. पुस्तकं कुत्र अस्ति? पुस्तकं प्रकोष्ठे अस्ति. अस्तु, द्वितीयं पठतु.
गृहं.
पुस्तकं कुत्र अस्ति? पुस्तकं
प्रकोष्ठे अस्ति. गृहं कुत्र अस्ति?
न, पुस्तकं कुत्र अस्ति? पुस्तकं
पुस्तकं गृहे अस्ति.
उत्तमं. सागरि भगिनी, पुस्तकं कुत्र अस्ति?
पुस्तकं शालायाम् अस्ति.
उत्तमं, शालायाम्. उत्तमं. सन्ध्या भगिनी,
पुस्तकम् उत्पीठिकायाम् अस्ति.
उत्पीठिकायाम् अस्ति. परमेश्वर महोदय,
पुस्तकं कपाटिकायाम् अस्ति.
उत्तमं, कपाटिकायाम् अस्ति. सविता भगिनी,
पुस्तकं स्यूते अस्ति.
स्यूते अस्ति.
अस्तु
अस्तु. रम्या भगिनी, अग्रे.
पुस्तकम् आपणे अस्ति.
आपणे अस्ति. ओ सोरि, सोरि अबौट् मै हेण्ड् रैटिङ्ग्. महेश् महोदय, इदानीं वदतु, पुस्तकं कुत्र अस्ति?
पुस्तकं काश्याम् अस्ति.
हा, काश्याम् अस्ति, उत्तमं. शारदा भगिनी, पुस्तकं कुत्र अस्ति?
पुस्तकं प्रदर्शिन्याम् अस्ति.
हा, उत्तमं. पुस्तकं प्रदर्शिन्याम् अस्ति. अस्तु, अग्रे. बालकः कुत्र उपविशति? केतकी भगिनी, बालकः कुत्र उपविशति?
बालकः आसन्दे उपविशति, बालकः कटे उपविशति.
कटे उपविशति. सागरी भगिनी,
बालकः वस्त्रकटे उपविशति.
उत्तमं, वस्त्रकटे उपविशति. सन्ध्या भगिनी,
बालकः मञ्चे उपविशति.
उत्तमं, बालकः मञ्चे उपविशति. अस्तु, परमेश्वर महोदय, भूमिः इति इकारान्तपदम्, अतः भूमौ इति भवति. बालकः कुत्र उपविशति? परमेश्वर महोदय, अस्तु. सविता भगिनी, भूमौ उपविशति. उत्तम. सविता भगिनी.
आं भगिनि. आन्दोलिका. आन्दोलिकायां बालकः आन्दोलिकायां उपविशति.
आन्दोलिकायाम् उपविशति. उत्तम. रम्या भगिनी,
पाकशालायाम्.
उत्तम.
पाकशालायाम् उपविशति
बालकः. बालकः पाकशालायाम् उपविशति. महेश महोदय,
बालकः उद्याने उपविशति.
उत्तमं, बालकः उद्याने उपविशति. अस्तु, अग्रे. आवरणैः, आवरणैः इति विभक्ति का? आवरणैः
तृतीया बहुवचनम्.
तृतीया बहुवचनम्. आवरणे, आवरणाभ्याम्, आवरणेन, सोरि, आवरणेन,
आवरणैः.
अस्तु, अग्रे पठामः. दत्तस्य शब्दस्य, शब्दस्य, दत्तस्य शब्दस्य बहुवचनरूपेण रिक्तस्थानं पूरयत. उदाहरणार्थं, वानराः वृक्षाः, वृक्षेषु निवसन्ति. निवसन्ति इत्युक्ते वसन्ति. वसन्ति, निवसन्ति समानार्थकपदम्. वानराः कुत्र निवसन्ति? वानराः वृक्षेषु, वृक्षेषु. पुनः एकवारं पठामः अत्र. वृक्षे वृक्षयोः वृक्षेषु, वने वनयोः वनेषु. आकारान्तस्त्रीलिङ्गमस्ति चेत् सु आगच्छति. ओके, पाठशालायां पाठशालयोः पाठशालासु. नद्यां नद्योः नदीषु, नदीषु. एवम् एवमेव तस्मिन् तयोः तेषु, तस्मिन् तयोः तेषु, तस्यां तयोः तासु, तासु. ओके, अन्य सर्वत्र भवती भवतोः भवत्सु. भवत् भवत् शब्दमपि समानमेव. भवति भवतोः भवत्सु. भवत्यां भवत्योः भवतीषु. गौरीवत् एव भवति. मयि आवयोः अस्मासु. अस्तु, अभ्यासदर्शिनी. पुष्पाणि कुत्र सन्ति? केतकि भगिनि, पुष्पाणि कुत्र सन्ति? ऐम् सारि, पुष्पाणि कुत्र विराजन्ते? विराजन्ते इत्युक्ते विकसन्ति इति.
पुष्पाणि लतासु विराजन्ते.
लतासु, सकार, लतासु, लतासु विराजन्ते. उत्तमम्. सागरि भगिनि,
कूपीषु औषधम् अस्ति.
कूपीषु औषधम् अस्ति. उत्तम. सन्ध्या भगिनी,
उद्योगिनः कार्यालयासु कार्यं कुर्वन्ति.
उत्तमं. कार्यालय कार्यालय ओके सो सो अत्र कार्यालयाः
कार्यालयेषु
कार्यालयेषु कार्यालयेषु किमर्थं भगिनी
कार्यालयः एकवचन पुल्लिङ्गः
करेक्ट् उत्तम
कार्यालयेषु
कार्यं कुर्वन्ति यत्र आह इति अस्ति किञ्चित् अवधानम् आवश्यकं लिटिल् बिट् केर्फुल् सो दिस् कुड् बि लतः आल्सो बट् वि नो इट् इस् लताः सो तत्र किमपि नास्ति संशयः नास्ति अस्तु धन्यवादः परमेश्वर महोदय यानानि कुत्र सञ्चरन्ति
यानानि मार्गे सञ्चरन्ति
मार्गे इति एकवचनं
यानानि मार्गे मार्गे
मार्गे मार्गयोः मार्गेषु सो सो यु हाव् टु से लैक् दट् उत्तमं महोदय मार्गे मार्गयोः मार्गेषु भगिनि कार्यालयः अपि वदतु तथा त्रीणि रूपाणि
कार्यालयेषु
उत्तमं सागरि भगिनी कूपी वदतु
कूप्योः
कूपीषु उत्तमं चेतकी भगिनी लता वदतु
लतायोः लतासु
एकवचनं सम्यक् नास्ति भगिनि लतायां
ओ लतायां लतायोः लतासु
लतायां लतयोः इट् बिकम्स् ह्रस्व लतयोः लतासु उत्तमं
लतयोः लतासु
उत्तमम् अस्तु
भगिनि द्विवचनं मोस्ट्लि ऐ थिङ्क् इस् ह्रस्व इन् आल्मोस्ट् आल् आफ् द फार्म्स् रैट्
लतयोः
कूपी लैक् दट् वि आर् मेकिङ्ग् इट् कूप्योः like that right and then it becomes dirgha again when it is
bahuvachan so if you look at the pattern in your mind like that it is good savita bagini chhatraah kutra patante
vidyalayaah vidyalayoh vidyalayasu
punah vadatu bagini
छात्राः विद्यालयां विद्यालयोः
अत्र मूलपदं पुल्लिङ्गं वा स्त्रीलिङ्गं वा किं
विद्यालय स्त्रीलिङ्ग
विद्यालयः पुल्लिङ्ग
पुल्लिङ्गालयः
विद्यालयः प्रथमम् आलयः इति पदम् आलयः पुल्लिङ्गपदम् आलयः इति पदात् पूर्वं वयं किमपि पदं योजयितुं शक्नुमः देवालयः कार्यालयः विद्यालयः पुस्तकालयः किमपि परन्तु पुल्लिङ्गपदमेव विद्यालयः इदानीं वदतु त्रीणि रूपाणि
विद्यालयः विद्यालयोः विद्यालयेषु
पुनः वदतु भगिनि विद्यालयः इति प्रथमा विभक्ति खलु सप्तमी विभक्ति वदतु
विद्यालये विद्यालयोः विद्यालयेषु
उत्तम विद्यालये विद्यालयोः विद्यालयेषु उत्तम
छात्राः विद्यालयेषु पठन्ति
उत्तमं भगिनि रम्या भगिनि जनाः कुत्र उपविशन्ति
आसन्दाः
आसन्दे आसन्दयोः आसन्देषु जनाः आसन्देषु उपविशन्ति.
उत्तमं, स्पष्टं. महेश महोदय.
एतेषु पुस्तकेषु दोषाः न सन्ति.
एतेषु पुस्तकेषु दोषाः न सन्ति. अत्रापि त्रीणि रूपाणि वदतु महोदय.
एते एतयोः एतेषु पुस्तके पुस्तकयोः पुस्तकेषु.
उत्तमम् उत्तमं. शारदा भगिनी सप्तमं वदतु.
सप्तमम्
आपणाः विक्रयणं प्रचलति.
आपणे आपणयोः आपणेषु विक्रयणं प्रचलति. आपणेषु विक्रयणं प्रचलति.
उत्तमम्. विक्रयणं प्रचलति. विक्रयणम् इत्युक्ते किं? सेल्लिङ्ग्. सेल्लिङ्ग्
सेल्लिङ्ग्
क्रयणम् इत्युक्ते बैङ्ग्. बैङ्ग् सेल्लिङ्ग्. अस्तु, अग्रे केतकी भगिनी नवमम्.
आं भगिनि. विच् वन्?
नैन्थ्. नवमं.
भारती भारतीये भारतीयाः भारतीयेषु भगिनि
भारतीयाः जनाः देव भक्तिः अधिका इति अस्ति. भारतीयः इति पदं प्रथमाविभक्तिपदं भारतीयः. एवमेव जनाः इति पदस्य प्रथमाविभक्ति एकवचनं जनः. उदाहरणतः हस्तः इति पदम् अस्ति चेत् कथं भवति? किमपि स्टाण्डर्ड् भवत्याः मनसि स्थापयतु.
हस्तेषु
हस्ते हस्तयोः हस्तेषु खलु. हस्ते हस्तयोः हस्तेषु
भारतीये भारतीयोः भारतीयेषु.
भारतीये भारतीययोः अत्र य अपि अस्ति. भारतीययोः भारतीयेषु. उत्तमं. जनः इति अस्ति चेत्
जनाः जनेषु.
अत्र द्वितीय द्विवचने योः आगच्छति खलु. पुनः वदतु. जने
जनेयोः जनेषु.
उत्तमम्. इदानीं वदतु.
भारतीयेषु जनेषु देवभक्तिः अधिका.
उत्तमम् उत्तमम्.
धन्यवादः.
धन्यवादः. सागरि भगिनि.
सख्यः
सख्यः सख्यः
सखी
सखी सख्यौ सख्यः. अस्तु.
सखीयां सख्यां सख्योः सखीषु.
उत्तमं. सा
सखीषु अधिकं विश्वासं करोति.
उत्तमं. सा सखीषु अधिकं विश्वासं करोति. उत्तमं. सन्ध्या भगिनी.
चलनचित्रं नपुंसकलिङ्ग एकवचनं. चलन
इट्स् ओके. गृहम् इति अस्ति चेत् कथं वदति? गृहं भवती कुत्र अस्ति इदानीं?
गृहे.
गृहे गृहे इदानीं वदतु.
चलनचित्रे चित्रौ चलनचित्रेषु
चलनचित्रयोः अयोः आगच्छति. योः द्विवचने योः चलनचित्रे
चलनचित्रे चलनचित्रयोः चलनचित्रेषु चलनचित्रेषु मम आसक्तिः नास्ति.
सि अत्र आसक्तिः नास्ति, मम आसक्तिः नास्ति. चलनचित्रेषु मम आसक्तिः नास्ति. मम आसक्तिः हौ विल् यु से इति अदर् वे हौ विल् यु से इति अदर् वे अहम् इति
चलनचित्रे अहं चलनचित्रेषु आसक्ति न प्रदर्शयामि.
उत्तमं उत्तमं. सर्वे अवगच्छन्ति वा? अस्तु, अहं गृहपाठं प्रेषयामि. अस्तु, अग्रे
सा वदति अहम् आगच्छति चेत् द्वितीया आगच्छति. अतः चलनचित्रम् आगच्छति.
सो भगिनि डोण्ट् कन्फ्यूस्. चलनचित्रं विल् बि इन् सप्तमे, दट् इस् फर् श्योर्. सो सो यु स्टार्ट् वित् चलनचित्रं बिकास् दट् इस् फर् श्योर्, दट् डजन्ट् चेञ्ज्.
न भगिनि, अहं वेन् यु सेड् स्टार्ट् वित् अहं.
No, I didn't say that. I said you start with Chalanachitra.
Okay, sorry, I misunderstood.
Then,
thank you.
Yeah. No, what I'm saying is if you start with Aham here.
Okay.
So, if you start with Aham, then this will be in Dvitiya.
If you start
these two together, okay? If you start with Shashti, then this is Prathama.
Astha.
Supposing you want to say Preetihi, katam vadate chalna chitre?
Mama Preeti asti.
Preetihi asti. Preetihi
Preetihi
asti.
Chalna chitre, mama Preetihi asti.
So if you want to say aham?
Chalna chitram.
चलनचित्रे
गच्छामि
न
पश्यामि
न यु हाव् टु यूस् प्रीति.
ओ,
चलनचित्रे अहं प्रीतिं
दर्शयामि
न प्रदर्शयामि अथवा न दर्शयामि
न दर्शयामि
अथवा न प्रदर्शयामि. अवगतम्? ओके, सो वि विल् डू मोर् द नेक्स्ट् टैम्. ओके, नेक्स्ट् टैम् वि विल् डू मोर्. अस्तु, अग्रे का वदति? सन्ध्या भगिनी अभवत्, परमेश्वर महोदय.
यस् मेम्.
गृहिण्यः इत्युक्ते फस्ट् यु हेव् टु फिगर् औट् एकवचनं वा द्विवचनं वा बहुवचनं वा इति. गृहिण्यः इति अस्ति खलु, गृहिण्यः गृहिणी गृहिण्यौ गृहिण्यः लेखनी लेखन्यौ लेखन्यः. सो महोदय, वेनेवर् वी हेव् यः, देन् यु नो इट् इस् एन् ईकारान्त बहुवचन. सख्यः यः यः इति आगच्छति चेत् ईकारान्त स्त्रीलिङ्ग बहुवचनं. अस्तु, गृहिणी गृहिण्यौ गृहिण्यः
गृहिण्यौ कार्यकौशलं सम्यक्.
सो हौ डु वि डू द रूपं? गृहिणी खलु, गृहिण्यां गृहिण्यौ गृहिणीषु
गृहिणीषु कार्यकौशलं सहजं
सहजं गृहिण. सो इन् देम् कार्यकौशलं सहजम्. ओके, कार्यकौशलं सहजं. सो अत्र अपि वि यूस् षष्टि सप्तमी विभक्ति. For example, if you say, she is very, oh, sorry, she, oh, kutra api gata, ekanasha. Supposing we want to say she is very good in sing in Carnatic music.
Karnataka sangeete.
Karnataka sangeete.
Kushalam asti.
Kushalam asti.
Kushalini asti.
Kushalini asti.
Oh. Kushalini asti.
Bhagini, Karya Kaushalam means good at her work, is that what it means?
Aam. Okay, astu, agree. Savita Bhagini.
Aam Bhagini. Vidhyarthiniha tippani pustakani likhanti. Tippani pustakani.
In so tippani means is like you know when you write down notes.
Yeah.
You know, okay.
Noting, yeah.
Note.
Vidyarthiniha tippani pustakani likhanti. Tippani pustakani.
So atra pustakam iti asti chet. Napumsakalingapada.
Napumsakalingapada.
Pustaka. Like that.
Pustakeshu.
Astu.
Tippani pustakeshu.
Uttama.
Vidyatini tippani pustakeshu likhanti.
Vidyatinyaha tippani pustakeshu
likhanti.
Uttama.
Excuse me, tippani pustaka means rough notes or what?
Rough notes, when you take down some notes, to study later. Instead of writing full sentences, you will just write short, yeah, sharp. Yeah, like that. Astu, agre, savi, Ramya Bhagini.
Tikataha. Tikatam, tikatayoho, tikatasu.
Sikatayam, sikatayam. Sikatayoho, sikatasu. Sikata ityukte sand. Sand.
Samudra tire balakaha sikatasu kridanti.
Uttamam. Sikatasu kridanti. Uttamam bhagini. Astu. Mahesh Mahodaya.
Nataha chalana chitreshu abhinayam karoti. Chalana chitre, chalana chitrayoho, chalana chitreshu.
Uttamam. Nataha chalna chitreshu abhinayam kurvan karoti. Astu, agre kim asti iti pashyami. Ditiya vibhakti rupam. Astu, vayam idani vibhakti vallari pustakam gachamah. So atra kunaha patamah. Samskrita adhyayane mama mahati asaktihi asti. Iti vakye asaktehe adharaha samskrita adhyayanam. Asaktihi is on samskrita adhyayanam. That's what they are saying. Adharaha itikte, it is based. This is the base on which. Iti artaha. So for all these we use saptami vibhakti. Udaharanartam, in that, in him, mama anadaraha, your anadaraha mastu, adaraha ityukte respect, anadaraha disrespect mastu, in him. So how will we say in him? Tasmin. Bhavataha anadaraha mastu.
Nastu.
Mastu.
Okay.
Because when you're giving an order, it changes to ma, right? Not na. Bhavataha anadaraha mastu. Okay, so I'm going to give you grihapatam in this, okay? Different ways.
Danyavada Bhagini.
Danyavada. Astu. I know. Only for you, Bhagini.
That worksheet in which Saptami Vibhakti details were there, can you please send that as well?
Sure, sure.
Showed it to us.
Yes, Nischayena. Yes. I will send this. And then what I will do is, for each one, I will give like five sentences, six sentences.
Aam Bhagini.
As example. Okay? Astu. अस्तु विरमामः शान्तिमन्त्रं वदामः केतकी भगिनी भवती एव वदतु शान्तिमन्त्रमपि वदतु ओम्
सर्वे भवन्तु सुखिनः सर्वे पश्या भगिनी ऐ वाण्ट् टु सी
I don't have it, Bhagini, sorry. Om sarve bhavantu sukhinah, sarve santo mayamayah, sarve bhadrani pashyantu, ma kashchit dukha bhavet. Om shanti shanti
धन्यवादः
भगिनी धन्यवादः
धन्यवादः
थैंक्स् यू
शुक्रवार